देवो न शुभमातनोतु दशधा निर्वर्तयन् भूमिकाम् रंगे धाम निलब्ध निर्बर रसैर् अध्यक्षितो भावुकैः यद्भावेषु पृथग् विधेष्वन गुणान् भावान् स्वयं बिभ्रति यद्धर्मैरिह धर्मिणि विहरते नानाकृतिर्नायिका देवो न शुभमातनोतु दशधा निर्वर्तयन् भूमिका रंगे धाम निलब्ध निर्बर रसैर् अध्यक्षितो भावुकैः यद्भावेषु पृथग् विधेष्वन गुणान् भावान् स्वयं बिभ्रति यद्धर्मैरिह धर्मिणि विहरते नानाकृतिर्नायिका निर्मग्नश्रुतिजालमार्गण दशा दत्तक्षणैर्वीक्षणैः अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् निष्प्रत्यूह तरङ्गरिङ्गणमित प्रत्यूडपातश्चटा डोलारोह सदोहणम् भगवतो मात्स्यम् वपुः पातु नः अव्यासुर्भुवनत्रयी मणिभृतम् कण्डूय नैरद्रिणा निद्राणस्य परस्य कूर्म वपुषो निःश्वासवातोर्मयः यद्विक्षेपण संस्कृतो दधिपय प्रेङ्खोल पर्यङ्किका नित्यारोहण निर्वृतो विहरते देवः सहैव श्रिया गोपाये धनिसं जगन्ति कुहना पोत्री पवित्रीकृत ब्रह्माण्ड प्रलयोर्मि घोष गुरुभिर्घोणारवैर्घुर्गुरैः यद्दं शाङ्कुर कोटि गाढ घटना निष्कम्प नित्यस्थितिः ब्रह्मस्तम्भमसौदसो भगवति मुस्तेव विश्वम्भरा प्रत्यादिष्ट पुरातन प्रहरण ग्राम क्षणम् पाणिजैः अव्यात्रीणि जगन्त्य कुण्ठ महिमा वैकुण्ठ कण्ठीरवः यत्प्रादुर्भवनादवन्ध्य जटरा यादृश्चिका द्वेदसा या काचित् सहसा महासुरग्रहस्थूणा पितामह्यभूत् व्रीडा विद्दवदान्यदानवयशो नासीरधाटी भटः त्रय्यक्षम् मकुटम् पुनन्नवतु नस्त्रैविक्रमो विक्रमः यत्प्रस्ताव समुच्छ्रित ध्वजपटी वृत्तान्त सिद्धान्तिभिः श्रोतोभिः सुरसिन्धुरष्टसुदिशा सौधेषु दोधूयते क्रोधाग्निम् जमदग्निपीडन भवम् सन्तर्पयिष्यन् क्रमात् अक्षत्रामिह सन्ततक्षय इमाम् त्रिसप्तकृत्वक्षितिम् तत्त्वा कर्मणि दक्षिणाम् क्वचन तामास्कन्द्य सिन्धुम् वसन् अब्रह्मण्यमपाकरोतु भगवान् अब्रह्मकीटम् मुनिः पारावारपयो विशोषण कला पारीण कालानल ज्वालाजाल विहार हारि विशिक व्यापार घोरक्रमः सर्वावस्थ सकत् प्रपन्न जनता संरक्षणैक व्रते धर्मो विग्रहवान् अधर्म विरतिम् धन्वीस तन्वीतनः पखत्कौरव पट्टन प्रभुदय प्रास्त प्रलम्बादयः तालाङ्कस्य तथा विधा विहृदयस्तन्वन्तु भद्राणिनः क्षीरम् शक्कर एव याभिरपृथग्भूता प्रभूतै गुणैः आकौमारकमस्वदन्त जगते कृष्णस्य ताः केळयः नाथायैव नमः पदम् भवतु नश्चित्रै चरित्रक्रमैः भूयोभिर्भुवनान्यमूनि कुहन गोपाय गोपाय ते कालिन्दीयसिकाय काल्य फणिस्फारस्फटावाटिका रङ्गोत्सङ्ग विशङ्क चङ्क्र मधुरा पर्याय चर्याय ते भाविन्या दशया भवन्निह भवद्वंसाय नः कल्पथाम् कल्की विष्णुयशस्वतः कलिकथा कालुष्यकूलङ्कषः निःशेषक्षतकण्टके क्षितितले धारा जलौके ध्रुवम् धर्मम् कार्तयुगम् प्ररोहयति यन्नश्रंस धाराधरः इच्छामीन विहार कच्छप महापोत्र्यन् यदच्छाहरे रक्षावामनरोष राम करुणा काकुस्तहेलाहलिन् क्रीडावल्लव कल्कवाहन दशा कल्किन्निति प्रत्यहम् जल्पन्तः पुरुषाः पुनन्ति भुवनम् पुण्योगपन्यापनाः विद्योदन्वति वेङ्कटेश्वर कवौ जातम् जगन्मङ्गलम् देवेशस्य दशावतार विषयम् स्तोत्रम् विवक्षेदयः वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परा मानसे शुद्धिः कापि तनो दिशासु दशसु ख्यातिश्वा जृम्बते विद्योदन्वति वेङ्कटेश्वर कवौ जातम् जगन्मङ्गलम् देवेशस्य दशावतार विषयम् स्तोत्रम् विवक्षेदयः वक्त्रे तस्य सरस्वती बहुमुखी भक्तिः परा मानसे शुद्धिः कापि तनो दिशासु दशसु ख्यातिश्वा जृम्बते।